नमस्कारः. अद्य प्रवर्तमानविषयः अस्ति यङ् लुगन्त दातवः इति. तस्मिन् विषये गते सप्ताहे वयं दृष्टवन्तः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इति सूत्रेण यङ् प्रत्ययः विधीयते यत्र धातुः हलादिः अथवा हलादिः अपि च एकाच् अस्ति चेत्. यदा हि धातुतः यङ् प्रत्ययः विधीयते तदा सनाद्यन्ता दातवः इत्यनेन धातुसंज्ञा भवति. यङ् इति प्रत्ययः तिङ् प्रत्ययः नास्ति, षित् अपि नास्ति इति कृत्वा आर्धधातुकप्रत्ययः. अतः अत्र आर्धधातुकप्रक्रिया इति वदामः. यङ् इति प्रत्ययस्य वैशिष्ट्यं किम् इति चेत् तस्य लुक् अपि भवति विकल्पेन यङ्गोचि च इति सूत्रेण. अपि च वयं गते सप्ताहे दृष्टवन्तः वकारान्तधातुषु यकारान्तधातुषु कुत्र यङ् प्रत्ययः न विधीयते इति. इदानीं ततः अग्रे धात्वादेशाः. सामान्यतया आर्धधातुकप्रक्रियायां धात्वादेशाः भवन्ति, परन्तु अत्र का गतिः इति अद्य पश्यामः. धात्वादेशीयानां यङ् लुक् ततः आरभ्य पठति वा महोदय?
धात्वादेशीयानां यङ् लुकः चत्वारः धात्वादेशाः भवन्ति आर्धधातुकप्रत्यये परे. इदं कार्यम् आर्धधातुकप्रत्ययस्य विषये भवति. यङ् लुकि च यङ् इति आर्धधातुकप्रत्ययः नष्टो भविष्यति इति आर्धधातुकप्रत्ययः नष्टो भविष्यति इति योजनायाः बलात् अकृतव्यूहाः पाणिनीयाः इत्यनेन इमे धात्वादेशः निषिद्धाः. बलात् अकृतव्यूहः अनया परिभाषया यन्निमित्तकं कार्यं निर्दिष्टं तदेव निमित्तं यदि नशिष्यमानं नाम अग्रे निश्चिततया नष्टो भविष्यति तन्निमित्तिककार्यं न भवति. अस् धातोः स्थाने भू आदेशो न भवति. अस् धातुः च अजादिः अतः तस्य यङ् प्रत्ययः एव न भवति. यङ् न भवति चेत् यङ् लुक् अपि न भवति. अज् धातोः स्थाने वि आदेशः न भवति. अज् धातुः अजादिः अस्मात् यङ् लुकः न भवति. चक्ष् धातोः स्थाने छाङ्यादेशो न भवति. चक्ष् धातुः हलादिः अनेकाच् अतः तत्र यङ् अतः यङ् भवति तस्मात् यङ् लुक् लुक् अपि भवति. भ्रू धातोः स्थाने वच् आदेशो न भवति. भ्रू धातुः हलादिः भ्रू धातुः हलादिः अनेकाच् अतः यङ् भवति अनेकाच् हलादिः तस्मात् यङ् लुक् अपि भवति.
वस्तुतः तत्र अनेकाच् नास्ति, हलादिः एकाच् एव.
एकाच् एव ब्रू धातु
किञ्चित् मुद्रणदोषः अस्ति.
एकाच् एव अतः यङ् एकाचो धातो एकाचो हलादे या तत्रापि भवति एव किल?
सत्यं. परन्तु यङ्ग्लुकि धातु आदेशः न भवति.
धातु आदेशः न भवति ब्रू वच् आदेशो न भवति. यत्र यत्र यङ् लुक् भवति तत्र धात्वादेशः न भवति वा?
सत्यं. तत्र प्रत्ययः एव नास्ति खलु, प्रत्ययस्य लुक् अभवत्. इदानीं प्रत्ययः एव नास्ति तत्र, अतः अतः कार्यं न भवति.
अतः अकृतव्यूहाः पाणिनीयाः तत् किञ्चित् विवरणं करोति वा भवती?
हा, अकृतव्यूहाः पाणिनीयाः इति परिभाषा अस्ति. अत्र उदाहरणार्थं वदामि, अत्र वाव्रश् इति धातुः अस्ति. तत्र वाव्रश् तत्र तालवे षकारः चकारः अस्ति. तत्र लङ्लकारस्य प्रसङ्गे यदि वयं अवाव्रश् इति अडागम कृत्वा अवाव्रश् योगः त इति प्रत्ययः प्रथमपुरुषे एकवचने कुर्मः चेत् तत्र इदानीम् अत्र अवाव्रश् इत्यस्मिन् तालवे षकारः अस्ति, अनन्तरं चकारः अस्ति. तत्र स्कोः संयोगादयोरन्ते च इति सूत्रमस्ति. तेन सूत्रेण तत्र सकारस्य लोपः भवितुमर्हति, परन्तु इदानीं तत्र सकारः नास्ति, तालवे षकारः अस्ति, तस्य अनन्तरं चकारः अस्ति. तालवे षकारः अस्ति इति कृत्वा स्कोः संयोगादयोरन्ते च इत्यस्य कार्यं न भवति, यतोहि तत्र स्तोः श्चुनाश्चुः इति सूत्रेण तालव्यशकारः जातः चकारस्य प्रभावेन. इदानीम् अत्र अन्ते चकारः अस्ति, अत्र विशिष्टसूत्रमस्ति खलु, व्रश्च भ्रश्च सृज मृज यज राज,
तस्मिन्
तस्य चकारादेशः भवति. इदानीं चकारः न चकारः गच्छति, यदा हि त इति प्रत्ययं योजयामः पदं भवति, तत्र व्रश्य भ्रश्य इत्यनेन चकारः चकारस्य स्थाने शकारः आगच्छति. तर्हि तस्मिन् सन्दर्भे अत्र वयं जानीमः चकारः एव निमित्तम् आसीत् तत्र स्तोः शुनाश्युः इत्यस्य कार्यार्थं, तादृशनिमित्तमेव नष्टः अभवत्. तर्हि इदानीं तत्र त प्रत्ययस्य योजनार्थं वयं तत्र अवाव्रश्च सकारचकारः एव स्वीकृत्य कार्यं कुर्मः, यतोहि तत्र निमित्तम् अग्रे गत्वा नशिष्यमाणम् इति कृत्वा तादृशकार्यं न कुर्मः इति कृत्वा स्तोः शुनाश्युः इत्यस्य कार्यं न कुर्मः लङ्लकारस्य प्रथमपुरुषे तस्मिन् सन्दर्भे. अतः
अत्र यदा पूर्णं पूर्वमेव जानीमः चेत् तदानीमेव न कर्तव्यम् इति
सत्यं सत्यं सत्यम्. अत्रापि अत्र वयं जानीमः अत्र यङ् प्रत्ययस्य यदा हि धातुतः यङ् प्रत्ययः विधीयते, तदनन्तरं यङ्गोचि च इत्यनेन यङ् प्रत्ययस्य लुक् भवति इति वयं जानीमः. तर्हि तादृशनिमित्तमेव नष्टः भविष्यति इति कृत्वा अत्र तादृशकार्यं न कुर्मः.
अस्तु, अग्रे पठामि वा?
हा, पठतु महोदय.
अस्ते भूः आर्धधातुकविवक्षायाम् अस् धातोः स्थाने भू आदेशो भवति. अनेकाल् षित् सर्वस्य इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य. अस्तेः षष्ट्यर्थं भूः प्रथमान्तम् अन्य कोऽपि अस्ति इति मन्ये.
शुको न महोदय इति मन्ये. नमस्कारः महोदय, न श्रूयते. पठतु महोदय.
अस्तेः षष्ट्यन्तं भूः प्रथमान्तं द्विपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्तेः भूः आर्धधातुके. अजेर् व्यगङ्गपोः अजेर् धातोः बि इत्ययम् आदेशः स्यात् आर्धधातुकविषये ङै च अप्श वर्जयित्वा. अजोः अजेः षष्ट्यन्तं बि प्रथमान्तम् अज्ञपोः सप्तम्यन्तं त्रिपदमं सूत्रम् आर्धधातुके इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अजेः बि आर्धधातुके अज्ञपोः इति अस्ति. अन्य आदेशः चषिङः ज्ञाय् इति चषिङः ज्ञान्यादेशो भवति आर्धधातुके. षषिङः षष्ट्यन्तं ज्ञान् प्रथमान्तं द्विपदमिदं सूत्रं
महोदय केवलम् अनुवृत्ति महोदय
अनुवृत्तिसहितं षषिङः ज्ञाय् आर्धधातुके. भ्रुवोर्वचिः तत्र अनुवृत्तिसहितसूत्रं भ्रुवः वचिः आर्धधातुके. उपर्युक्त परिगणितान् वकारान्तधातून् धात्वेदीशीयान् चेति अतिरिच्य येभ्यः धातुभ्यः यङ् प्रत्ययो भवति तेभ्यः यङ् लुक् अपि भवति. तत्र यकारान्तधातूनान्त बकारान्तधातून् धातून् तत्र पूर्वं वयं दृष्ट्वा यकारान्तबकारान्त तत्र कुत्र यङ् लुक् भवति इति. इदानीं धात्वेश स्थाने यत्र यङ् लुक् भवति तेभ्यः एतेषां धातूनां यङ् लुक् भवति चेत् तत्र अपि यङ् लुक् भवति इति.
सत्यम्. अस्तु, धन्यवादः महोदय. शुकोर महोदय अस्ति वा? शुकोर महोदय.
नमस्ते भगिनि, क्षम्यतां.
नमस्कारः महोदय, चिन्ता नास्ति. पठितुमिच्छति वा?
कुत्र अस्ति?
अत्र यङ् लुक् प्रक्रिया इति धातु आदेशः इति जातः, तदनन्तरं यङ् लुक् प्रक्रिया.
यङ् करपत्रं तु यङ्ग्लुगन्तदातवः इति किल
हा यङ्ग्लुक् प्रक्रिया इति अस्ति ततः इदानीं धात्वादेशः ब्रुवोवचि अस्तेर्भूः तत्सर्वं जातं तदनन्तरं यङ्ग्लुक् प्रक्रिया सर्वप्रथमं यङ् विधीयते तदा सनाध्यन्तदातवः इत्यनेन धातुसंज्ञा
धात्वदेशीयानां यङ्ग्लुक् इति यङ्ग्लुक् प्रक्रिया सर्वप्रथमं यङ् विधीयते तदा सनाद्यन्तः धातवः इत्यनेन धातुसंज्ञा तदा यङ्ग्लुक् यङोचि च इति सूत्रेण यङ् प्रत्ययस्य विकल्पेन लुक् भवति तदा युगपत् यङः लुक् अपि च संयङोः इत्यनेन द्वित्वप्रसक्तिः अयं लुक् आदेशः अनैमित्तिकः किन्तु संयङोः इत्यनेन यद्द्वित्वं भवति तस्य कृते निमित्तानि सन्ति एकाचो द्वे प्रथमस्य इत्यनेन द्रष्टव्यं यत् यस्य धातोः द्वित्वं तस्य एकाच अथवा अनेकाचः वर्तन्ते अजादेर्द्वितीयस्य इत्यनेन द्रष्टव्यं यत् तस्य आदौ अच् वर्णः अस्ति अथवा हल् वर्णः तस्मात् संयङोः इत्यस्य अपेक्षया यङोचि च अनैमित्तिकत्वात् अनैमित्तिकत्वात् अन्तरङ्गम् अस्ति अल्पापेक्षरमन्तरङ्गं द्वित्वकार्यं बहिरङ्गम् इति कारणतः द्वित्वात् प्रागेव प्रक्रियायां सर्वप्रथमं कार्यं यङः लुक् ओ इत्युक्ते तत्र प्रथमं यङः लुक् भवति यङोचि च इति सूत्रेण तदनन्तरमेव संयङोः इत्यनेन तत्र द्वित्वं भवति इति
सत्यं
द्वित्वं यङः लुगानन्तरं प्रश्नः उदेति यदा यङ् प्रत्ययोः नास्त्येव तदा कथं संयङोः इत्यनेन द्वित्वं स्यात् सत्यं संयङोः सनन्तस्य यङन्तस्य च धातुरनभ्यासस्य प्रथमस्यैकाच् अवयवस्य द्वे स्तः अजादेस्तु द्वितीयस्य अनुवृत्तिसहितसूत्रं संयङोः धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य एकाचो द्वे प्रथमस्य एतत् अधिकारसूत्रं प्रथमस्य एकाच् भागस्य द्वित्वं भवति जागृ जा जागृ इति भवति पच् 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 इति भवति इति भवति सूत्रं स्वयं सम्पूर्णं प्रथमस्य एकाचः द्वे अजादे द्वितीयस्य अधिकारसूत्रम् एतदपि अजादि धातोः द्वित्वस्य एकाच् भागस्य द्वित्वं भवति ऊर्णु तत्र ऊर्णु नु इति भवति स्वयं सूत्रं स्वयं सम्पूर्णम् अजादेः द्वितीयस्य एकाचः द्वे इति कृत्वा तत्र अजादेर्द्वितीयस्य इति सूत्रेण अजादिधातोः द्वितीयस्य एकाच् भागस्य द्वित्वं भवति इति कृत्वा एकाच इति प्रथमस्य इत्यस्य कार्यं हलादिधातूनां कृते एव भवति इति पर्यवस्यति बहुत्र धातुः एकाच् एव तथा भवति चेत् समग्रधातोरेव द्वित्वं भवति यथा जुहोत्यादिगणे मा मामा हा 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 यङन्तधातुः सदा अनेकाच् यतोहि औपदेशिकधातौ न्यूनातिन्यूनम् एकः स्वरः अस्ति एव तदा य इत्यस्य संयोजनेन य इत्यस्मिन् यकार यः अकारः सः यङन्तधातोः द्वितीयः अच्वर्णोः अच्वर्णः भवति आम् धातुः अनेकाच् चेत् अपि च हलादिः चेत् अलादिः इति चेत् एकाचोति प्रथमस्य इत्यनेन प्रथमस्य एकाच् भागस्य द्वित्वं भवति धातुः अनेकाच् चेत् अपि च अजादिः चेत् अजादे द्वितीयस्य इत्यनेन द्वितीयस्य एकाच् भागस्य द्वित्वं भवति एकाच् भागः इत्युक्ते यदा हि तत्र यदा इति भवति किल यादा इति यदा हि प्रथमः अच् वर्णः आयाति स च वर्णः भागस्य अन्तो भवति नाम स्वरवर्णः भागस्य अन्तिमवर्णः भवति अन्तिमवर्णः अग्रिमभागस्य प्रथमवर्णः यथा भूयोगः य भूय इत्यस्य सनाद्यन्तधातुः इत्यनेन धातुसंज्ञा संयङोः इत्यनेन द्वित्वं भूय इति धातुः अनेकाच् हलादिः च अतः प्रथमस्य एकाच् भागस्य द्वित्वम् ऊकारः स्वरः अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्णः भू इति प्रथमभागः तस्य च द्वित्वं भू भूय किन्तु धातुः अजादि चेत् अजाद्यर्द्वितीयस्य इत्यनेन द्वितीयस्य एकाच् भागस्य द्वित्वं भवति अश् योगः य अश्य वदतु भगिनि
महोदय क्षम्यताम् इदानीं गोपाल् महोदय पठति
हा हा
किन्तु धातुः अजादिः अस्ति चेत् अजादे द्वितीयस्य इत्यनेन द्वितीयस्य एकाच् भागस्य द्वित्वं भवति अस् योगाय अस्य इत्यस्य स्थानाद्यन्तदातवः इत्यनेन धातुसंज्ञा संयोगोः इत्यनेन अजादेः द्वितीयस्य द्वित्वम् अस्य इति धातुः अस्य इत्यस्य प्रथमः अकारः स्वरः अतः स च अकारः प्रथमभागस्य अन्तिमवर्णः स्य इति द्वितीयभागः तस्य च द्वित्वम् अश्य श्य इति अस्य श्य इति रूपं भवति केन अजादे द्वितीयस्य इति सूत्रेण ध्येयं यत् यङ् प्रत्ययं निमित्तीकृत्य द्वित्वम् इति वार्ता नास्ति अस्य इत्यस्य दर्शनेन स्पष्टं भवति यत् यङ् प्रत्ययः द्वित्वकार्यस्य निमित्तं नाम यङ् प्रत्ययः द्वित्वकार्यस्य निमित्तं नास्ति य एव स्थानी नाम स च यकार्यस्य स्थलम् अपरेषु द्वित्वप्रसङ्गेषु प्रत्ययः सप्तमी विभक्तौ भवति लिटि धातोर् अनभ्यासस्य श्लौ छङि येषु लिटि श्लौ छङि इति सप्तम्यन्तानि किन्तु संयगोः इत्यस्मिन् संयगोः इति षष्ट्यन्तं पदं यतोहि तस्यैव द्वित्वं भवति स्थाने यस्य अन्ते यङ् अस्ति तस्य द्वित्वं भवति यङ् तस्मिन् द्वित्वकार्यम् अन्तर्भूतं यङ् तस्मिन् द्वित्वकार्यम् अन्तर्भूतमेव इदानीं अस्य इति यङ् यस्य यद्यपि धातोः अन्तिम वर्णः अस्ति अस्य इति आ अकारः अस्ति तस्य भागः एव द्वित्वं भवति परन्तु ये एव स्थानी नाम तस्य एव कार्यस्थलं किमर्थं चेत् तत्र किं वदति सूत्रं किं वदति संयगोः इति षष्ट्यन्तम् इति कृत्वा तस्य स्थाने एव भवति अन्यत्र श्लौ चङि लिटि धातो अनभ्यासस्य इति सर्वत्र सप्तन्त्यानि रूपाणि किन्तु श्लौ तत्र सम्यक् न अवगतं तत्र अवगच्छामि तत्र स्थाने इति यन् संयोगो इति षष्ट्यन्तकारणात् स्थाने भवति यकारः स्थानी भवति तस्मात् तत्र एव द्वित्वकार्यस्य कार्यस्थलं भवति परन्तु श्लौ तत्र सप्तमी इति पूर्वं भवति तत्र किम् तत् सम्यक्तया न अवगतं
सरि तर्हि अत्र महोदय अत्र अश्य इति धातुः अस्ति किल तत्र अश्य इत्यस्मिन् धातौ तत्र यकारः यङ् प्रत्ययः अस्ति खलु अश्योगः यङ् इति प्रत्ययः इदानीम् अत्र यङ् इति प्रत्ययः निमित्तम् अस्ति चेत् अस्मिन् सन्दर्भे निमित्तं नास्ति परन्तु यदि यङ् इति प्रत्ययः निमित्तम् इति चिन्तयतु अत्र निमित्तम् अस्ति चेत् तत्र अश् इति भागं स्वीकृत्य एव वयं द्वित्वं कुर्मः यत्र यङ् प्रत्ययः निमित्तम् अस्ति चेत्, परन्तु अस्मिन् सन्दर्भे यङ् इति प्रत्ययः निमित्तं नास्ति. यङ् इति प्रत्ययः अपि कार्यस्य स्थलम् अस्ति, तर्हि अश्य इति स्वीकृत्य वयं कार्यं कुर्मः. एवमेव अत्र जुहोत्यादिगणे श्लौ जुहोत्यादिभ्यः श्लू श्लू इति प्रत्ययः तत्र शप् इति प्रत्ययस्य श्लू भवति तत्र. तर्हि इदानीं तत्र प्रत्ययः एव नास्ति, परन्तु अत्र तादृशप्रत्ययः निमित्तं भवति. तर्हि श्लू इति प्रत्ययः निमित्तं भवति. तस्मात् पूर्वं यदि मा इति धातुः अस्ति चेत् अत्र मा इति धातु मा योगः शप् इति चिन्तयतु, तत्र शप् इत्यस्य श्लू भवति. तत्र श्लू एव निमित्तम् अस्ति द्वित्वकार्यस्य निमित्तं, परन्तु अत्र यङ् प्रत्ययः निमित्तं नास्ति, तदेव स्थानी अस्ति. स्थानी अस्ति इति कृत्वा एव वयम् अश्य इति स्वीकृत्य द्वित्वं कुर्मः.
तत्र परन्तु मामा इति जुहोत्यादिगणे तत्र श्लौ इति निमित्तम् अस्ति, तस्मात् यत्किमपि पूर्वम् अस्ति मामा तदेव तत्र एव स्थानी किमपि नास्ति. श्लौ इति सप्तम्यन्त्यकारणात् पूर्वं भवति श्लौ.
सत्यं सत्यम्. इदानीं श्लौ इति शप् इति प्रत्ययस्य लोपः न भवति इति चिन्तयतु. श्लौ इति लोपः न भवति, शप् अस्ति. तस्मात् पूर्वं मा इति धातुः अस्ति चेत् तत्र शप् अ इति प्रत्ययः मा उभयोः मिलित्वा वयं द्वित्वं न कुर्मः. तत्र अ इति प्रत्ययः एव निमित्तम् अस्ति, तर्हि मा इति धातुं स्वीकृत्य द्वित्वं कुर्मः. तावदेव.
भगिनि एकः प्रश्नः इति चेत् तत्र ऊर्णु इति धातुः इदानीं स्वीकुर्मः, ऊर्णु तत्र यङ् योजयित्वा ऊर्णूय इति भवति किल?
ऊर्णूय. हा एकनिमिषं महोदय. धातुः अजादिः अस्ति अतः यङ् न भवति तत्र.
ओ
परन्तु तत्र विशिष्टसूत्रमस्ति खलु, विशिष्टसूत्रेण तत्र ऊर्णु इति अन्तर्भूतः इति मन्ये.
विशिष्टमेव अश् इति धातुः अन्तर्भूतः.
हश् ऊर्णु सूचीसूत्रे. सत्यं सत्यम्.
इदानीं तत्र ऊर्णु इति धातुः तस्मिन् अस्ति वा?
ऊर्णु इति अस्ति. सत्यं.
इदानीं तत्र ऊर्णु इति स्वीकुर्मश्चेत् तत्र ऊर्णूय इति यङः योजनानन्तरम् ऊर्णूय इति भवति. इदानीं तस्य द्वित्वकार्यं कथं भवति इति किञ्चित् वदतु. तत्र ऊर्णु
हा ऊर्णु य इति अस्ति. तत्र ऊ इति प्रथम एकाच् भागः. इदानीम् अत्र द्वितीय एकाच् भागः अस्ति रेप नकारः उकारः. द्वितीय एकाच् भागः अस्ति, तस्य एव द्वित्वं भवति. तर्हि अत्र रेपस्य रेपनकारयोः संयोगः अस्ति इति कृत्वा रेपस्य द्वित्वं न भवति. तत्र सूत्रमस्ति किल न इन्द्राः संयोगादयः इति सूत्रेण रेपस्य द्वित्वं न भवति. तर्हि नु इत्यस्य एव द्वित्वं. तर्हि ऊर्णु ऊर्णु नु य ऊर्णु नु य
ऊर्णु नु य.
ओ इत्युक्ते तत्र अन्तिम अन्तिमभागस्य इति न द्वितीयभागस्य द्वितीय इत्येव. तत्र ऊर्णु य इत्यत्र ऊ इति एकः स्वरः, तदनन्तरं नकारस्य परं यद् उकारः अस्ति तत्तु द्वितीय स्वरः, यकारस्य अनन्तरं यद् अकारः अस्ति तत् तृतीयस्वरः.
सत्यम्
इति चिन्तनं वा?
सत्यं सत्यं तथा एव.
ओ किन्तु तत्र अश् इति धातोः तत्र केवलम् एकमेव धातोः एव केवलम् एकमेव स्वरः अस्ति इति कृत्वा इदानीं यकारः यद् सञ्ज्ञोः तेन विदितः तत्र यकारस्य द्वित्वं भवति इति.
अत्र अश्य इत्यस्मिन् पश्यतु महोदय, अत्र स्वरद्वयम् अस्ति. अ इति प्रथमभागः, श्य इति द्वितीयभागः. तर्हि अजादेर् द्वितीयस्य
किन्तु इदानीं यकारः यद् आगतं सत्यं तत्र किन्तु यकारः द्वितीयस्वरः यङ् इति प्रत्ययस्य भागः एव इति
हा सत्यं यङ् इति प्रत्ययस्य भागः
ऊर्नु इत्यत्र तत्र यद् उकारः इदानीं धातोः अन्ते उकारः अस्ति तत्तु धातोः भागः एव
सत्यं 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 भेदः अस्ति उभयत्रभेदः अस्ति हा यतोहि तत्र एकः एव आच् परन्तु अत्र
मया चिन्तितं
सत्यं
हा 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 मया चिन्तितं यत्र यत्र अजादि धातुः अस्ति तत्र यङ् विधीयते चेत् सर्वदा यकारस्य एव द्वित्वं भवति इति किन्तु तादृशं नास्ति द्वितीयस्य भवति इति
सत्यं सत्यम्
अवगतं
वस्तुतः ऊर्नु इति बहु सम्यक् उदाहरणमासीत् वस्तुतः पूर्वं मया महोदय ईमेल् प्रेषितवती ऊर्नु इत्यस्मिन् विषये एव रूपाणि साधयामः इति महोदय तदनन्तरं भारते गतवान्
अस्तु द्वितीयप्रश्नः अत्र संज्ञोः इत्यत्र वदतु गोपाल् महोदय
स्वरूपमहोदय भारतदेशे इदानीमपि तत्रैव अस्ति
वा तत्रैव अस्ति भारते एव अस्ति मार्च् मासस्य अन्ते आगच्छामि इति अस्ति खलु एप्रिल् मास आदौ एप्रिल् मासे आदौ आगच्छति प्रायः अग्रिमसप्ताहे एव प्रायः अन्तिमवर्गः मम वर्गः भवति इति चिन्तयामि परन्तु किमपि सन्देशः न प्राप्तवती
हा अत्र संयङोः इति सूत्रमस्ति किल तत्र यङ् इति निमित्तं नास्ति किन्तु स्थानि एव अतः द्वितीयकार्ये अन्तर्भूतं भवति इति तादृशं तादृशमेव सङ् इत्यस्य अपि भवति किल संयङोः
सत्यं सत्यं सत्यं
हा
अग्रे आयसिति उन्दिश् इत्यस्मिन् उन्द् योगः सन् आयति
अस्तु
महोदय महोदय
तत्र एवं रीत्या एव द्वितीयस्य
सत्यं सत्यं सत्यम्
अग्रे पठामि वा
पठतु
नन्द्राः संयोगादयः अचः पराः संयोगादयः नदराः द्विर्न भवन्ति इञ्च इच्छ रश्च तेषाम् इतरे दुन्दो नुन्द्राः तत्र अनुवृत्तिसहितम् अजादेः संयोगादयः नुन्द्राः न द्वे अत्र किं वदति अजादिधातोः यत्र संयोगः अपि अस्ति नकार दकार रकारः अस्ति तत्र द्वित्वकार्यं न द्वे द्वे इत्युक्ते द्वितीयस्य द्वित्वं न भवति इति वा
न द्वितीयस्य द्वित्वं न भवति इति नास्ति महोदय तत्र अच् अजादिधातुः अस्ति अच् वर्णः प्रथमम् अस्ति तदनन्तरं संयोगः अस्ति कीदृशसंयोगः इति चेत् तत्र नकारः दकारः रेपः संयोगस्य आदौ अस्ति चेत् तेषां द्वित्वं न भवति नकारः दकारः रेपः
संयोगस्य
संयोगस्य आदौ
आदौ न द्वे न द्वित्वं भवति यथा ऊर्नु ऊ इति प्रथमः एकाच् भागः ऋणु इति द्वितीयः एकाच् भागः अजादे द्वितीयस्य इत्येन द्वितीयस्य एकाच् भागस्य द्वित्वं भवति स्म परन्तु न इन्द्राः संयोगादयः इत्यनेन संयोगादिरेफस्य द्वित्वं न भवति अतः नु इत्यस्य एव द्वित्वं ऊर्नूनु इति भवति इदानीम् अवगम्यते ऊर्नु तत्र एव रेफः अस्ति नकारः अस्ति तदनन्तरम् अच्वर्णः अस्ति तस्मात् रेपस्य नकारस्य द्वित्वं न भवति यद्यपि द्वितीय अच्वर्णः भागः अस्ति रेपः नकारः उकारः तदापि रेफस्य नकारस्य द्युत्वं न भवति, केवलम् उक नकार रेफस्य नुक्
केवलं रेफस्य
रेफस्य अद्युत्वं न भवति, नकारस्य उकारस्य नु नु इति भवति, ऊर्नु नु इति इति अस्तु.
हा स्पष्टमस्ति खलु महोदय, तत्र अजादिधातुः अस्ति, ऊ इति अस्ति प्रथमं, तदनन्तरं रेपनकारयोः संयोगः, तर्हि आदौ संयोगस्य आदौ रेपः अस्ति इति कृत्वा तत्र रेपस्य द्वित्वं न भवति, केवलं तत्र द्वितीय एकाच् भागः अस्ति रेपनकारः उकारः, परन्तु रेपस्य द्वित्वं न भवति, केवलं नु इत्यस्य एव द्वित्वं, तर्हि नु इति पुनः आगच्छति.
अस्तु अवगतम्. अन्य उदाहरणम् उन्द् सन् इडाम इडागमः षत्वादेशः उन्दिश उन्दिश त्रयः एकाच् भागः ऊ न्दि श इति भागत्रयमस्ति. अजादे द्वितीयस्य इत्यनेन द्वितीयस्य एकाच् भागस्य द्वित्वम् इन्दि इति द्वितीयः एकाच् भागः, तत्र न इन्द्राः संयोगादयः, तत्रापि संयोगः अस्ति इत्यनेन संयोगादि नकारस्य द्वित्वं न भवति. नकार तत्र नकारः अस्ति, तस्य द्वित्वं न भवति, अतः दी इति इत्यस्य एव द्वित्वं, प्रथमः तृतीयः च एकाच् भागो यथावत् तिष्ठतः. उन्दि दि श इति उन्दि उन्दि दि श इति अत्र भागत्रयमस्ति, यत्र अच्वर्णः अस्ति ऊ दि श, परन्तु इन्दि इति तस्य संयोगः अस्ति, नकारस्य द्वित्वं न भवति, दि एव द्वित्वं भवति. ऊ उन्दि दि श इति उन्दि
अत्रापि पश्यतु महोदय, सन् इति प्रत्ययः निमित्तं नास्ति, स्थानी अस्ति सन्यङ्गोः इत्यनेन, अतः एव सन् अपि योजयित्वा द्वित्वं कुर्मः.
भगिनी तत्र भिन्नः
प्रश्नः, भगिनी सन् उन्द् इति संयोजनेन इडागमः भवति उन्दि, अत्र तदेव वा द्वित्वं न भवति किल, तत्र
द्वित्वम् उन्दि इति उन्दि इति अस्ति, तत्र आदेशप्रत्ययोः इत्यनेन षत्वं भूत्वा उन्दिश इति धातुः अस्ति, इदानीम् उन्दिश इति धातुं स्वीकृत्य द्वित्वं कुर्मः, द्वित्वं कृत्वा कृत्वा उन्दि दिश उन्दि दिश,
तत्रापि संयोगोः इति तदेव सूत्रं कार्यं करोति.
सत्यं सत्यं. वदतु महोदय, शुकवान महोदय.
तत्र हलादिः शेषः इति सूत्रमस्ति किल, अभ्यासकार्यसूत्रं, तत् सूत्रं तु केवलं हलादि धातोः परे एव भवति वा, नो चेत् सर्वत्र तस्य कार्यं भवति वा?
हलादिशेषः इति अभ्यासकार्यमस्ति खलु, द्वित्वानन्तरं तत्र हलादिशेषः इत्यनेन आदिमहल् वर्णः एव तिष्ठति, अन्ये हल् वर्णः लुप्यन्ते इति
लोप
तद् अवगतं, किन्तु तस्य सूत्रस्य प्रसक्तिः सर्वेषां धातूनां भवति वा, नो चेत् केवलं हलादि धातु एव भवति वा इति प्रश्नः.
हलादिधातोः एव भवति वा, हलादिधातोः एव हो इत्युक्ते भवान् किं वक्तुमिच्छति चेत्, अजादिधातुः अस्ति चेत् तत्र यदा हि अजादिधातुः अस्ति चेत् तत्र हल् वर्णः आदिमवर्णः न भवति खलु, अतः हलादिशेषः इति
हल् वर्णः हलादिशेषः इति सूत्रे आदिमवर्णः हलादिः इति प्रथम एकवचनमस्ति, तत्र तदेव आदेशः, इत्युक्ते आदिमः हल् वर्णः एव अवशिष्यते इति वदति, तत्र धातोः आदौ हल् भवेत् इति किमपि चिन्तनं नास्ति. किमर्थं मया पृष्टम् इति चेत्, इदानीं तत्र सूत्रं प्रकृतसूत्रमस्ति किल, ननन्द्राः संयोगादयः इति, तत्र इदानीं रेपस्य दकारस्य नकारस्य लोपः द्वित्वं न भवति अनेन सूत्रेण इदानीं हलादिः शेषः इति सूत्रेण तस्य लोपः भवति वा तत् तिष्ठति वा इति चिन्तनम् अस्ति मम तत्र अनयोः सूत्रयोः मध्ये कः सम्बन्धः इति चिन्तयन् आसीत्।
ओ न इन्द्राः संयोगादयः अपि च ओ न इन्द्राः संयोगादयः द्वित्वविषये अस्ति, द्वित्वविषये अस्ति, द्वित्वकार्यानन्तरमेव वयम् अभ्यासकार्यस्य विषये यावत्पर्यन्तं द्वित्वं न भवति तावत्पर्यन्तं पूर्वोऽभ्यासः इति न भवति खलु। द्वित्वानन्तरमेव पूर्वोऽभ्यासः उभे अभ्यस्तम् इति आगच्छति। इदानीं यदा हि अभ्यससंज्ञा भवति तदनन्तरमेव तत्र हलादिशेषः तत्सर्वम्।
ओ इत्युक्ते नन्द्राः संयोगादयः इत्यस्य कार्यं प्रथमं भवेत्, तत् कृत्वा इदानीं तत्र अभ्याससंज्ञा यस्य अस्ति तत्रैव हलादिशेषः इत्यस्य प्रसक्तिः।
सत्यं सत्यं,
द्वित्वं कृत्वा एव तदनन्तरमेव कुत्र एकः हलादि एव हल् वर्णः एव तिष्ठति पूर्व हल् वर्णः, द्वितीय यद् अन्ये सर्वे लोपः भवति।
सत्यं सत्यम्। अस्तु अग्रे महोदय।
प्रत्ययलोपे प्रत्ययलक्षणं, सूत्रं स्वयं सम्पूर्णं, प्रत्ययलोपे प्रत्ययलक्षणं, प्रत्यये लुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात् जानीमः। न लुमताङ्गस्य यस्मिन् शब्दे लू अस्ति तेन शब्देन प्रत्ययादर्शनं विहितं चेत् सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्। यङ् लुकि तत्र यस्मिन् शब्दे लू अस्ति तेन शब्देन प्रत्ययादर्शनं विहितं चेत् प्रत्ययादर्शनं विहितं चेत् सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्। अनुवृत्तिसहितं लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न। अत्र यङ् लुकि इति तत्र लुक् लुमता अस्ति तदा तस्मात् यद्यपि प्रत्ययलोपः जातः तत्र अङ्गस्य अङ्गकार्यं निमित्तं तस्य यद् यत्किमपि यत् किमपि अङ्गकार्यम् अस्ति तत् निमित्तं न स्यात्।
सत्यं
तत् निमित्तं न स्यात्। अस्मिन् सूत्रे लुमता लुमत् पठामि सर्वं एतत् सर्वं अस्मिन् सूत्रे लुमता लुम लुमत् इति प्रातिपदिक तृतीयाभ्यक्त्यन्तं रूपं
नावश्यकम् इति चिन्तयामि, आवश्यकं चेत् पठतु। अस्तु 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 महोदय, धन्यवादः। इदानीं शुकवान महोदय।
अस्मिन् सूत्रे लुमता लुमत् इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम्, इदं मतु प्रत्ययान्तं प्रथमाविभक्तौ लुमान्। मतु प्रत्ययस्य अर्थः अस्य अस्मिन् वा, यथा बुद्धिमान् इत्युक्ते बुद्धिः अस्य अस्मिन् वा सः बुद्धिमान्, तर्हि लु अस्य अस्मिन् वा सः लुमान्। व्याकरणे त्रयः लुमन्तः सन्ति लुक् श्लु लुप् च इति। इदं सूत्रं वक्ति यत् तेन अदर्शनं येन अदर्शनं भवति सः लुमान् अस्ति चेत् तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति। अनुवृत्तिसहितसूत्रं तथैव, यदा लुमता प्रत्ययलोपे तदा अङ्गस्य प्रत्ययलक्षणं न। अतः न लुमताङ्गस्य इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य बाधकसूत्रं। तर्हि अत्र सारांशः एवं यत् श्लू इत्यनेन कस्यचित् प्रत्ययस्य अदर्शनं भवति चेत् यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति। द्वित्वे वैशिष्ट्यं ह्वे धातुः, ह्वे धातोः द्वित्वात् प्राक् तस्य सम्प्रसारणं भवति। ओ अभ्यस्तस्य च इति सूत्रम्, अभ्यस्ति भविष्यतो ह्वे सम्प्रसारणं स्यात्। क्वे धातोः यदा द्वित्वं भविष्यति तस्मात् साक्षात् प्रागेव तस्य सम्प्रसारणं भवति। अनुवृत्तिसहितसूत्रम् अभ्यस्तस्य ह्वः सम्प्रसारणं च, क्वे योगः यङ् तत्र अभ्यस्तस्य च इत्यनेन प्रथमं सम्प्रसारणं भवति तत्र वकारस्य उकारादेशः भवति हु इति भवति तदा एव द्वित्वं तत्र एकारस्य का गतिः भगिनि
सम्प्रसारणाच्च
सम्प्रसारणाच्च सत्यम् एवमेव ह्वे योगः लिट् हू योगः लिट् इति भवति ह्वे योगः सन् हू योगः सन् इति भवति सिद्धान्तकौमुद्याम् अभ्यस्ति भविष्यतो ह्वेयः सम्प्रसारणं स्यात् इति वृत्तिः तत् कथम् इति प्रश्नः क्वः इति षष्ट्यन्तम् अभ्यस्तस्य इत्यपि षष्ट्यन्तम् अत्र द्वयोः एतत् पठनीयं वा भगिनि
न आवश्यकम्
त्यजामः हा अवगतं किन्तु तत्र किमस्ति इति अवगतं
हा सत्यम् अत्र केवलम् अत्र प्रथमं सम्प्रसारणं कार्यं करोतु तदनन्तरमेव द्वित्वम् इति तावदेव
धनसम्प्रसारणे सम्प्रसारणं सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति सूत्रं सम्पूर्णं न सम्प्रसारणे सम्प्रसारणं प्रश्नः उदेति यत् क्वे धातोः एजन्तत्वात् तस्य आदेशोपदेशे शिति इत्यनेन आत्वं भवति किम् अवश्यं भवति पर्जन्यवद् भवति तस्य फलं नास्ति इति कारणतः न प्रदर्श्यते किन्तु भवति आत्वस्य अनैमितिकत्वात् सम्प्रसारणात् प्रागेव ओ आत्वं तु सम्प्रसारणात् प्रागेव भवति इदानीं तत्र ह्वे तत्र ह्वा इति भवति तदनन्तरं अभ्यस्तस्य इत्यनेन वकारस्य स्थाने उकारादेशः हू योगः सम्प्रसारणाच्च इत्यनेन तत्र हू इत्येव अवशिष्यते इति कृत्वा न प्रदर्शितम् किन्तु भवति इति अभ्यासः अभ्यस्तम् इति द्वे संज्ञे पूर्वोऽभ्यासः द्वित्वानन्तरं यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः अनुवृत्तिसहितसूत्रं पूर्वः अभ्यासः द्वयोः उभे अभ्यस्तं द्वित्वानन्तरं द्वयोः समुदायः अभ्यससंयो भवति अनुवृत्तिसहितसूत्रम् उभे द्वे अभ्यस्तम् अभ्यासकार्यं नल्मताङ्गस्य इत्यनेन यङ् प्रत्ययनिमित्ति निमित्तम् अङ्गकार्यं निषिद्धम् यथोक्तं द्वित्वकार्यं प्रत्ययलक्षणे भवति अभ्यासकार्यं तु यङ् प्रत्ययनिमित्तकं नास्ति तदर्थं यङ् लुकि न कापि बाधा द्वित्वस्य अत्र किमुक्तं न लुमताङ्गस्य इत्यनेन यङ् प्रत्ययनिमित्तम् अङ्गकार्यं
निषिद्धम्
तत्र किञ्चित् वदतु भगिनि
हा तत्र यत्र यङ् इति प्रत्ययस्य लुक् लुक् भवति तत्र इदानीं यङ् प्रत्ययः नास्ति तर्हि न लुमताङ्गस्य इति सूत्रेण अङ्गकार्यं निषिद्धम् इति तु वयं जानीमः परन्तु अत्र तर्हि अङ्गकार्यं निषिद्धं चेत् तत्र द्वित्वकार्यं कथं भवति इति चेत् तत्र द्वित्वकार्यम् अङ्गकार्यं नास्ति अतः तत्र प्रत्ययलोपे प्रतिलक्षणम् इति कर्तुं शक्नुमः अतः द्वित्वकार्यं तत्र भवति यतोहि तत्र यङ् प्रत्ययः स्थानी अस्ति परन्तु प्रत्ययः नास्ति परन्तु लक्षणं कृत्वा वयं कुर्मः
तत्र लुमता अङ्गस्य इति अस्ति इति कृत्वा तत्र केवलम् अङ्गकार्यमेव न भवति इति
सत्यम्
अन्यानि कार्याणि भवन्ति
यदि यदि अङ्गकार्यं तत्र अनुकूलमस्ति तत्र एव एतादृश चिन्तनं नो चेत् किमपि न
हा यतोहि अङ्गस्य इत्यस्मिन् अधिकारे बहूनि सूत्राणि सन्ति यानि अत्रापि कार्यं कर्तुम् इच्छन्ति परन्तु अत्र न लुमताङ्गस्य इत्यनेन बाधितं भवति यथा अत्र दीर्घ ऋकारान्तधातुः अस्ति चेत् ऋत इद् धातोः इत्यस्य कार्यं भवितुम् अर्हति अङ्गकार्यम् इति कृत्वा परन्तु न लुमताङ्गस्य इत्यनेन बाधितं भवति
इत्युक्ते भगिनी तत्र अङ्गस्य इति अधिकारे यानि सूत्राणि सन्ति तानि सर्वाणि अत्र बाधितं भवति नलमताङ्गस्य
सत्यं
तादृशकार्यं यत्र कुत्रापि भवति वा इति द्रष्टव्यं
बहूनि सूत्राणि सन्ति यत्र यङ् लुकि कार्यं न करोति रीङ्गः ऋतः ऋत धातोः कानिचन सूत्राणि अत्र करपत्रे दत्तमस्ति
द्वित्वस्य अनन्तरं कानिचन कार्याणि भवन्ति अभ्यासे तानि च अभ्यासकार्यमित्युच्यते यथा अभ्यासस्य ह्रस्वत्वम् अल्पप्राणत्वं च भवति अभ्यास कार्यस्य च अभ्यासकार्यस्य तत्र यथा अभ्यासस्य ह्रस्वत्वम् अल्पप्राणत्वं च भवति इति भवति वा भवतः इति भवेत् वा
भवतः
तदेव मया पठितं किन्तु तत्र भवति इति लिखितम् इति कृत्वा अस्तु अभ्यासकार्यस्य पुनः विभजनं भवति सामान्य अभ्यासकार्यं विशेष अभ्यासकार्यं च इति सामान्य अभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति लिटि सनि यङि श्लौ चङि च विशेष अभ्यासकार्यं भवति द्वित्वसम्बन्धप्रत्ययम् अधिकृत्य यथा लिटि विशेष अभ्यासकार्यं पुनः श्लौ पृथक्तया पुनः सनि यङि चङि च अत्र सामान्य अभ्यासकार्यं प्रदर्श्यन्ते ततः अग्रे यथास्थानं यङ् लुक् विशिष्टानि अभ्यासकार्याणि प्रदर्श्यन्ते अग्रे पठामि भगिनि
हा पठतु महोदय
अत्र सन्ति प्रमुखसामान्यकार्या सामान्य अभ्यासकार्याणि हलादिशेषः सर्पोर्वाक्खयः ह्रस्वः उरत् कुहोश्चुः अभ्यासे चर्च हलादिः शेषः अभ्यासस्य आदिमः हल् शेषः अभ्यासे अपरेषां हलां लोपः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य हलादिः शेषः पट् सञ्ज्ञङ्गोः तेन यङन्तस्य धातोः प्रथमस्यैकाचो द्वे स्तः पट् पट् इति भवति प्रथमः पट् इति भागः अभ्यासज्ञः हलाधिशेषः इत्यनेन अभ्यासस्य आदिमः हल् शेषः अभ्यासे अपरेषां हलां लोपः प टकारस्य लोपः भवति प पट् इति भवति तथैव ज्ञा जज्ञा इति भवति
हा महोदय अत्र पश्यतु अभ्यासस्य हलादिः शेषः इति अस्ति खलु अतः यावत्पर्यन्तम् अभ्याससंज्ञा नास्ति तावत्पर्यन्तं हलादिशेषः कार्यमेव न करोति
पट् तत्र प्रथम तत्र हलादिः शेषः केवलं प्रथमभागस्य एव एकः हल् तिष्ठति अन्ये सर्वे लोपः जायते
सत्यं 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 गोपाल् महोदय अग्रे उदाहरणं सर्वं कर्तुम् इच्छति वा उदाहरणानि अथवा
एवं धन् धन् ओके एवं कुर्मः वा
करोतु
धन् धन् इति तत्र द्वित्वं कृत्वा धन् धन् दधनं दधन् इति निज् निज् तत्रापि निनिज् विश् विश् विविश् साद् खाद् 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 तत्र खा खाद् इति वा
खा खाद् अनन्तरम् अन्यानि कार्याणि अपि भवन्ति अत्र केवलं हलादिशेषः इत्यस्मिन् विषये एव
हलादिशेषः एव आम् दिश् इति तत्रापि दिदिश् विविज् तुर्तुर् तुतुर् बस् बस् बबस् इति रूपाणि भवन्ति हलादिशेषः इति तदेव अन्य तदनन्तरं तदनन्तरं किमपि किमपि
तदनन्तरम् अन्यानि कार्याणि सन्ति तत्र
सर्पूर्वाः खयः यस्य अभ्यासस्य पूर्वं शर् परञ्च खै शर् पूर्वः खय परञ्च खै खै इत्युक्ते खै प्रत्याहारे कपचट कपै कपै इति तत्पर्यन्तं खै अस्ति एव खै एव शेषो भवति अन्ये हलः च लुप्यन्ते हलादिशेषः इत्यस्य अपवादः अतः तस्य बाधकसूत्रम् अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य सर्पूर्वाः खयः शेषाः इदानीम् उदाहरणं स्पर्द् इति द्वित्वं कृत्वा स्पर्द् स्पर्द् तत्र प एव तिष्ठति किमर्थं चेत् ध अपि च स द्वौ अपि खै प्रत्याहारे सः तस्मात् पस्पर्द् इति रूपं भवति
स इति प्रथमं स इति शर् प्रत्याहारे अस्ति खलु, न तु खै
प्रत्याहारे. शर् पूर्वाः, पूर्वं शर् भवति स्यात्, तदनन्तरं खै अस्ति चेत् तत्र एव एतत् सूत्रं कार्यं कार्यं करोति. पूर्वं शर् शर् स्यात्
सत्यं
सर् स्यात्
खै एव तिष्ठति. हा
कै एव तिष्ठति. एवमेव विचारणीयं स्पन्द् स्पूज् स्तम्भ, तत्र स्पन्द् तत्रैव सर्वत्र पूर्वं सकारः अस्ति, तत्र पन्द् इति स्पन्द् स्पन्द् तत्र पकारः एव सर्वत्र तिष्ठति. स्पन्द् स्पूज् स्पूज् तत्र पूज् पू पू पूस्पूर्ज् वा
सत्यं
पूस्पूज् स्तम्भ इति तकारः तिष्ठति. तस्तम्भ स्तुब् स्तुब् कस् तत्र किं भवति खयति खल् तत्र खै अस्ति खल् तिष्ठति कस् खल् इति पस् पश् इति ति ति स्थिग् इति फूस्फुर् इति रूपाणि
सत्यम्.
आम् ह्रस्वः अभ्यासस्य अच्वर्णः ह्रस्वः स्यात्, अभ्यासस्य अच्वर्णः ह्रस्वः स्यात् अनुवृत्तिसहितम् अङ्गस्य अभ्यासस्य अचः ह्रस्वः रूपाणि सन्ति खा खाद् खाद् खा खाद् इति रूपं तत्र अभ्यासस्य अङ्गस्य अभ्यासस्य अचः ह्रस्वः तत्र अभ्यासस्य पूर्वाभ्यासः खा इति तत्र ह्रस्व भवति खखाद् इति नि नि लू लु लुलु से सेव् स इति सेव् तत्र ह्रस्वः ये इकारः भवति वा तत्र
एकारस्य ह्रस्व ह्रस्ववर्णः इकारः
इकारः सिसेव् गो गोष्ट् गुगोष्ट् ओकारः डौ डौक् डु डौक् इति रूपाणि अस्य अङ्गस्य अभ्यासस्य अचः ह्रस्वः. उरत् प्रत्यये परे अभ्यासस्य ऋवर्णस्य स्थाने अत् उरत् अत् आदेशः भवति ऊषष्ठ तत्र अनुवृत्तिसहितम् अङ्गस्य अभ्यासस्य ऊहु अत् वृष् 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 तत्र लोपः जाति फलादिशेषः इति वृवृष् तत्र ऋकारान्तस्थाने अत् आदेशः भवति तत्र वृ ऋकारान्तस्थाने अत् वर् तत्र उरण्डफ्रः अपि भवति वा
सत्यं सत्यम् अण् अस्ति खलु अत् इति केवलं ह्रस्व अकारः अकारः अण् प्रत्याहारे अस्ति इति कृत्वा
तत्र उरण्डफ्रः अपि आगच्छति वा वृष् इति कृष् कृष् कृ कर् कृष् तत्र प्रति का कृष् अपि च कर् कर् कृष् ककृष् तत्रापि यत्र रेफः आगच्छति पुनः हलादिशेषः इति कार्यं कृत्वा ककृष् इति भवति.
महोदय तत्र कुहोश्युः इति अपि प्रदर्शितवान् अतः चिन्ता नास्ति.
कुहोचुः तत्र कः जाने चकारः आगच्छति चकृष् इति कुहोचुः इति सूत्रेण अत्र हृष् हृष् कृष् हृष् कृ हर्ष् हर्ष् चकारस्य लोपः हृष् तत्र अपि हकारस्य जाने अन्यसूत्रं किम् अस्ति? जकारः कथम् आगच्छति?
हकारस्य शिकोनमहोदय वदति वा? धन्यवादः.
अभ्यासे चर्चा इति सूत्रमस्ति, तत्र हकारस्य स्थाने महाप्राणजकारः भवेत्, किन्तु अत्र अभ्यासे चर्चा इत्यनेन जश्शैव आदिष्टः इति कृत्वा तत्र स्थानेन्द्रतमः इत्यनेन तृतीयजकारः एव आगच्छति हकारस्य स्थाने.
हकारस्य स्थाने महाप्राणजकारः केन सूत्रेण?
तदपि स्थानेन्द्रतमः इत्यनेन एव.
न, प्रथमं तत्र हकारस्य स्थाने महाप्राणजकारः कुहोश्चुः इत्यनेन आगच्छति.
ओ, कुहोश्चुः तत्यक्तं मया.
चकारः आगच्छति,
महाप्राणचकारः, च वर्गस्य चतुर्थवर्णः. अनन्तरम् अल्पप्राणत्वम् अस्तु. शुकवन महोदय अग्रे करोतु महोदय.
तस्मात् पूर्वं भगिनी, केवलं चिन्तनार्थम् एतदहं वदामि. शर्पूर्वा खयः इति सूत्रमस्ति किल, तत्र सम्पूर्ण अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य शर्पूर्वा खयः शेषः इत्यनेन तत्र इदानीं स्पर्द् इति स्वीकुर्मः, शर् अस्ति प्रथमं, तदनन्तरं खै अस्ति इति कृत्वा सकारः अपगच्छति, किन्तु तदनन्तरं पकारस्य अनन्तरम् अकारः अस्ति, तदनन्तरं रेपः अस्ति, तदनन्तरं धकारः अस्ति, तत्सर्वमपि अनेन सूत्रेण एव अपगच्छति, न तु हलादिशेषः इत्यनेन किल.
सत्यम्, अकारः अनेन सूत्रेण नागच्छति.
आम्, अनेन सूत्रेण तदपि प्रश्नः अस्ति, किन्तु तदिदानीं मास्तु. तत्र अकारः तिष्ठति, किन्तु अकारस्य अनन्तरं यद् रेपः धकारः अस्ति तत्तु हलादिशेषः इति सूत्रेण न अपगच्छति, किन्तु शर्पूर्वाकयः इति सूत्रेणेनैव भवति.
सत्यम्
इति एकः. तत्र द्वितीयं प्रश्नः तु इदानीं खयः शेषाः इति, खयः शेषाः इति तत्र बहुवचनं किमर्थम्?
यतोहि तत्र कयः इत्यस्मिन् बहु बहवः वर्णाः सन्ति खलु, कुत्रचित् पाणिनी तादृशं बहुवचने उपयुक्त वदति कयः. भवान् पृच्छति किमर्थं कयः शेषाः इत्युक्ते, अत्र कय इति वर्णद्वयम् अस्ति चेत् तत्र वर्णद्वयं तिष्ठति,
शेषः इत्यनेन द्वितीयवर्णम् अपगच्छति वा?
न, इदानीम् अत्र स्पर्द् इत्यस्मिन् पकारद्वयम् अस्ति इति चिन्तयतु, स्पर्द् इति चिन्तयतु, पकारद्वयम् अस्ति इति तस्मिन् सन्दर्भे शर् पूर्वम् अस्ति, अनन्तरं खै वर्णद्वयम् अस्ति. वर्णद्वयम् अस्ति चेत् तत्र वर्णद्वयमपि तिष्ठति, खै तिष्ठति, तर्हि पकारद्वयं तिष्ठति. इदानीं हलादिशेषः इत्यस्य कार्यमेव नास्ति, पकारद्वयं तिष्ठति, अनन्तरम् अकारः अपि तिष्ठति, तर्हि प प इति भवति. परन्तु तादृशसन्दर्भः कुत्रचित् अस्ति वा न वा इति न जानामि, परन्तु कय एव तिष्ठति.
ओ अस्तु,
परन्तु महोदय, अत्र शर् साक्षात् पूर्वम् अस्ति चेत् एव खलु, साक्षात् पूर्वम् अस्ति, अनन्तरं कै अस्ति चेत् कै एव तिष्ठति, तर्हि अत्र किमर्थं शेषाः इति अस्ति इति, यतोहि तत्र विशेषणविशेषभावः प्रदर्शयितुम् इच्छति वा, अतः एव शेषाः इति. कयः अपि बहुवचने अस्ति, शर्पूर्वाः अपि बहुवचने अस्ति इति कृत्वा शेषाः इति अस्ति, परन्तु शर्पूर्वः अस्ति अनन्तरं कै अस्ति चेत् कै एव तिष्ठति, परन्तु तदनन्तरं पुनः शर् वर्णः अस्ति अनन्तरं कै वर्णः अस्ति चेत् पुनः तत्कर्ण कै वर्णः अपि स्थातुं शक्नोति.
सत्यं, किञ्चित् चिन्तनीयं तत्र.
हा, अन्यानि उदाहरणानि तादृशं,
तत्र शर्पूर्वाकयः अपि च हलादिः शेषः इति सूत्रयोः मध्ये कः सम्बन्धः इति चिन्तयन्नासीत्. तत्र शर्पूर्वाकयः यत्र कार्यं करोति तत्र हलादिशेषः इत्यस्य कार्यमेव न भवति इति वा, नो चेत् तत्रापि कानिचन सन्दर्भे भवितुम् अर्हति इति वा?
हलादिशेषः न भवति एव. तत्सूत्रं प्रबाद्य एव शर्पूर्वः कयः. यतोहि शर्पूर्वः कयः इत्यस्मिन् सूत्रे अपि सर्वाणि वर् केवलं खै एव तिष्ठति, अन्ये वर्णाः लुप्यन्ते. अतः अत्र तत्सूत्रं प्रबाद्य एव
शर्पूर्वकयः इति अपारसूत्रमस्ति.
सत्यं.
हा, किन्तु इदानीं तत्र उदाहरणं किञ्चित् भिन्न उदाहरणं ददामि. तादृशधातुः अस्ति वा न वा इति किन्तु केवलं चिन्तनार्थं. तत्र यथा भवत्या उक्तं, तत्र पकारद्वयम् अस्ति चेत् पकारद्वयमपि तिष्ठति. इदानीं तत्र रेपस्य अनन्तरं धकारः, महाप्राणधकारः अस्ति, तत्तु खै नास्ति. किन्तु तत्र चिन्तयतु, इदानीं तत्र पकारः अस्ति इति चिन्तयतु. स्पर्प् इति, स्पर्प् इति धातुः अस्ति इति चिन्तयतु. तत्र पकारः तिष्ठति, तदनन्तरम् अकारः तिष्ठति, रेपः अपगच्छति, किन्तु पकारः तिष्ठति इति स्वीकृत्य
न तिष्ठति, न तिष्ठति, न तिष्ठति. पकारः अपि यत् मया पूर्वम् उक्तं तद् दोषपूर्णमासीत्. शर् पूर्वं भवेत्, शर् पूर्वं भवेत् चेत् तदनन्तरं कै एव तिष्ठति. शर् पूर्वं नास्ति चेत् तत्र कै न तिष्ठति. तर्हि तद् द्वितीयपकारः न तिष्ठति, यतोहि पूर्वं शर् नास्ति. हलादिशेषः इति कार्यं,
तदेव प्रश्नः. इदानीं हलादिशेषः तत्र कार्यं करोति इति स्वीकुर्मश्चेत् अपवादत्वं न वक्तुं शक्यते.
हा, हलादिशेषकार्यं न करोति, अत्र केवलं शर्पूर्वः काय. परन्तु शर्वर्णः साक्षात् पूर्वं भवेत्. शर्पूर्वः इत्यस्य अत्र शर्पूर्वः प्रथमान्तम् इति एव दत्तमस्ति. प्रथमान्तं न तु पञ्चम्यान्तं, प्रथमान्तमेव. खै अपि प्रथमान्तं, द्विपदमिदं सूत्रं. तर्हि परन्तु अत्र व्याख्यानं
चिन्तयतु भगिनि. तत्र शर्पूर्वाकयः इत्यत्र व्याख्याने हलादिः, तत्र हलादिः शेषः इत्येव अस्ति, शेषः इत्येव अस्ति, न तु शेषाः इति. इत्यस्मात् वचनपरिमाणं कृत्वा शेषाः इत्यस्य अनुवृत्तिः दत्तम्. अतः एव किञ्चित् भ्रमः जातः भवति. नो चेत् तत्र शर्पूर्वाकयः इति सूत्रम् अपवादसूत्रम् इति न स्वीकृतवान् तत्. केवलं शर्पूर्वाकयः इति सूत्रेण किं भवति इत्युक्ते शरः, शर शर्वर्णः अपगच्छति, तस्मात् अनन्तरं तस्य खैवर्णः तिष्ठति इति तावन्मात्रेण एव वयं स्वीकुर्मश्चेत् तदनन्तरं हलादिः शेषः इत्यनेन अन्यत् कार्यं सर्वं कर्तुं शक्यते.
परन्तु
काश्ये तादृशचिन्तनं
इतोपि प्रायः. अस्तु अस्तु अग्रे महोदय.
कः
भवान् एव अत्र ऋकारान्तधातवः?
अस्तु, ऋकारान्तधातवः भृ इति अस्ति, भृभृ, तत्र भर्भृ इति भवति, तदनन्तरं बभृ इति भवति, तदनन्तरम् अभ्यासे चर्चा इत्यनेन बभृ इति भवति. एवमेव हृ जगृ, कृ चक्र, तत्र कुहोश्चुः इत्यस्य कार्यं. तृ इति दीर्घऋकारान्तदाश धातुः, इदानीं तृ तृ इति प्रथमं भवति, तदनन्तरं तर्तृ, उरत् इत्यनेनैव तत्र इति भवति. इत्युक्ते उरत् इति सूत्रं दीर्घऋकान्तारस्य, ह्रस्वऋकारस्य दीर्घऋकारस्य द्वयोः अपि भवति. तर्तृ इति भवति, तदनन्तरं हलादिशेषे इत्यनेन तर्तृ इति भवति. ध्येयं यत् यङ् लुङि न लुमताङ्गस्य इत्यनेन यङ् निमित्तीकृत्य अङ्गकार्य अङ्गकारनिषेधत्वात् रीङ्तः इत्यनेन धातोः ऋकारस्य ऋकारस्य रीङ् इति आदेशः न भवति. सत्यम्, अङ्गकार्यमिति कृत्वा रीङ्तः. तत्र मुद्रणदोषमस्ति किल भगिनि, ऋतः इति भवेत् किल?
ऋतः इति नास्ति इति चिन्तयामि महोदय, केवलं ह्रस्वऋकारः एव.
ऋतः इति नास्ति चेत् तत्र तपरमपि दत्तम् इति कृत्वा ह्रस्वऋकारस्य एव अस्य सूत्रस्य प्रसक्तिः भवति.
सत्यं, ह्रस्वऋकारः एव.
ओ, अस्य सूत्रस्य प्रसक्तिः ह्रस्वऋकारस्य एव. रीङ् इति आदेशः वा? तत्र तृ इत्यस्य सामान्यतया अभ्यासं न कुर्मश्चेत् किं कार्यं भवति?
हा हा तत्र हा सत्यं तत्र ऋतय् धातोः इत्यनेन ह्रस्व इकारः अनन्तरं मुरण्ड्रपरः इत्यनेन तिर् इति भवति. तदनन्तरं हल् वर्णः अस्ति चेत् हलि च इत्यनेन तीर् इति भवति. तर्हि अत्र कर्मणि प्रयोगे तीर्यते इति रूपं भवति खलु. ऋत इद् धातोः
तत्र
इकारान्तः आगच्छति.
तस्य आम् तस्य अस्य सूत्र तस्य सूत्रस्य प्रसक्तिः अपि अत्र न भवति इति
सत्यं
प्रदर्शितं. किन्तु अस्तु रीङ् ऋतः ऋदन्तस्य रीङ् आदेशो भवति अकृतः यकारे परे असार्वधातुकयकारे परे छि प्रत्यये परे च्वि प्रत्यये परे रीङ् आदेशस्य ङित्वात् ङिच्च इति सूत्रेण अङ्गस्य अन्त्यऋकारस्य एव स्थाने भवति. कुहोश्चुः अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्गीयादेशो भवति. तत्र स्थानेन्तरतमः इति परिभाषासूत्रेण उच्चारणस्थानसाम्यवशात् हकारस्य स्थाने झकारादेशः. तदा अभ्यासे चर्चा इत्यनेन झकारस्य स्थाने झकारः. कुहो कुस् तत्र अङ्गस्य क्षम्यताम् अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य कुहोः चुः स्थानेन्तरतमः प्रसङ्गम् अवलम्ब्य तुल्यतमः आदेशः भवति स्थाने अस्तु. कृ तत्र कृकृ इति भवति कर्कृ ककृ चक्र कुहोश्चुः इत्यस्य कार्यं भवति. खन् चखन् इति भवति. गं जगम् इति भवति. तत्रापि कुहोश्चुः इत्यस्य कार्यं. सर्वत्र ग्रह् इत्यत्र प्रथमं ग्रह् ग्रह् इति भवति. तदनन्तरं हलादिशेषः इत्यनेन रेपः आगच्छति. ग्रह् इति भवति. तदनन्तरं कुहोश्चुः इत्यस्य कार्यं भवति. तत्र भगिनी इदानीं तत्र सूत्रसङ्ख्या पश्यामश्चेत् कुहोश्चुः इति 62nd सूत्रमस्ति. अभ्यासे हलादिशेषः इति 61st सूत्रमस्ति. अतः तत्र प्रथमं कस्य कार्यं भवेत्?
सामान्यतया यत्र अभ्यासकार्यं भवति तत्र सूत्रसङ्ख्यायाः न कापि महत्त्वं. यतोहि अत्र एक परिभाषा अस्ति अभ्यासविकारेषु बाध्यबाधकभावः एव नास्ति. अतः एव महोदय वदति तत्र सामान्यतया माताजी वदति तत्र यत्र अभ्यासकार्यं कुर्मः तत्र सूत्रसङ्ख्यायाः महत्त्वमेव नास्ति. अतः प्रथमं कुहोश्चुः करोतु अथवा प्रथमं ह्रस्वः करोतु तत्र न कोऽपि परिवर्तनं रूपं समानमेव भवति. अतः परन्तु चिन्तनार्थं कस्य कार्यं भवति इति पृच्छति चेत् कुहोश्चुः इत्यस्य सूत्रसङ्ख्या अस्ति 7462. अन्यत् सूत्रं किम् आसीत्? हलादिः शेषः तस्य सूत्रसङ्ख्या अस्ति 6460 and 6462. हा द्वयोः कार्यं समानं परन्तु कार्यस्थलं भिन्नं खलु.
आमामां
तर्हि अत्र विप्रतिषेधे परं कार्यम् इति तादृशं
तत्र प्रथमवारं यद् यदा मया अभ्यासकार्यं पठितं तत्र भव्या भगिन्या उक्तम् एते सूत्राणि एतानि सूत्राणि सन्ति किल तत्र हलादिशेषः इति आरभ्य अभ्यासे चर्चा इति यावत् तत्र अधोभागे आरभ्य प्रथमभाग प्रथमसूत्रपर्यन्तं तादृशं कर्तव्यम् इति किमपि अनया उक्तम्.
न न अत्र केवलम् अभ्यासे चर्चा अत्र अभ्यासे चर्चा एव अष्टमादेश चतुर्थपादे अस्ति इति कृत्वा पूर्वत्र सिद्धम् इत्यनेन तस्य कार्यम् अन्ते भवेत् इति चेत् अवगच्छामि. परन्तु अन्यानि सूत्राणि सर्वाणि अपि सपादसप्ताध्यायामेव सन्ति. अतः तत्र किं सूत्रं प्रथमं किं सूत्रम् अनन्तरम् इति तादृशचिन्तनमेव तादृशचिन्तनस्य आवश्यकता नास्ति इत्येव महोदय सर्वदा वदति. परन्तु तथापि वयं तस्मिन् विषये इतोपि चिन्तनीयम् इति चेत् तत्र व्यवहारिकरूपेण तस्य न कोऽपि महत्त्वम्
अस्तु इति स्वीकुर्मः तत्र अस्तु यदि तादृश किमपि क्लेशः भवति चेत् अहं सूचयिष्यामि अस्तु
सामान्यतया एतावता वयं यानि उदाहरणानि वयं दृष्टवन्तः तत्र कुत्रापि वयं केनापि क्रमेण कुर्मः न तत्र समानरूपमेव वयं प्राप्नुमः
प्रायः सारल्यार्थं तादृशम् उक्तवती इति अहं चिन्तयामि
सर्वदा वयं वर्गे वयं चर्चा कोऽपि पृच्छति अत्र केन क्रमेण करणीयम् इति तत्र प्रत्येकं वारं महोदय वदति अत्र क्रमस्य किमपि न महत्त्वम् इति एव वदति
ओहो इति वा अस्तु घृ जगृ इति भवति हृ जहृ इति भवति हस् जहस् इति भवति अभ्यासे चर्चा अभ्यासे झल् स्थाने झष् चर् च आदेशौ भवतः तत्र स्थानेन्द्रतमः इति परिभाषासूत्रेण उच्चारण स्थानसाम्यवशात् झष् स्थाने झष् अपि च खै स्थाने छर् अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासे झलां छर् च झष् छर् च संहितायाम् अस्मिन् सूत्रे अपि मया महोदयेन उक्तम् अभ्यासे इति सप्तम्या दत्तं किमर्थं सप्तम्या दत्तं तदेव स्थानी इति कृत्वा अभ्यासस्य चर्चा इत्येव भवेत् इति मया पृष्टं किन्तु महोदयेन उक्तं तदपि भवितुम् अर्हति इति उक्तं तस्मिन् विषये भवत्याः चिन्तनं किमपि अस्ति वा
इदानीमेव प्रथमवारं तस्मिन् विषये अहं शृणोमि अत्र किमपि चिन्तनं नास्ति अहं विदितवती तत्र जल् स्थाने जश् भवति इति
किन्तु अभ्यासे इति तत्र सप्तम्या दत्तं ते निमित्तं भवति न तु स्थानं किन्तु अत्र स्थानी एव अस्ति अभ्यास यद् यस्य अभ्याससंज्ञा अस्ति तदेव स्थानी अत्र
ओ स्थानी इति कृत्वा
षष्ठी षष्ठी स्थाने योग षष्ठी स्थाने योगे इति सूत्रेण तत्र षष्ठी एव भवेत्
परन्तु किमर्थं भवान् विषयसप्तमी स्वीकरोति किमर्थं तत्र निमित्तसप्तमी स्वीकरोति किमर्थं न विषयसप्तमी
तत्र
तदपि इदानीमेव मया चिन्तितं तत्र अङ्गस्य इति अनुवृत्तिः अस्ति इति कृत्वा स्थानी उक्तं स्थानी अनुक्तम् इति नास्ति स्थानी उक्तम् अङ्गस्य स्थानी उक्तम् इति कृत्वा अभ्यासविषये अङ्गस्य जलां स्थाने जश् आदेशः नो चर् आदेशः भवति पुनः संहितायां विषये इति अपि आगच्छति किन्तु अत्र अभ्यासविषये इति यथा संहितायां तादृशं चिन्तनम् अत्र अभ्यासः यस्य अभ्याससंज्ञा अस्ति तदेव स्थानी अपि अस्ति इति कृत्वा तत्र प्रश्नः उदितम्
सत्यं सत्यं प्रश्नः समीचीनमेव परन्तु अत्र विषयसप्तमी इति स्वीकृत्य चिन्तयामः चेत् अत्र अभ्यासस्य विषये अङ्गस्य जलस्थाने जश आदेशः भवति संहितायां विषये अपि
तदपि मया दृष्टं तत्र अभ्यासे इत्यस्य अन्यत्र यत्र कुत्रापि अनुवृत्तिः अस्ति वा ततः एतादृशं दत्तम् आसीत् तदपि नास्ति अभ्यासे इति अस्मिन् सूत्रे एव अस्ति अन्यत्र यत्र कुत्रापि न गच्छति भवतु केवलं चिन्तनार्थं मया उक्तम् अस्तु इदानीं चर्त्वस्य उदाहरणं तु तुथुड् तत्र प्रथमचर्त्वं भवति तुथुड् इति फफल् पपल् इति भवति चुछुप् चुछुप् इति भवति जष्वं बुभू बुभू इति भवति डुढौक् डुढौक् इति भवति झझर्झ् झझर्झ् इति भवति तत्र झर्झ् इत्यत्र किमपि इदानीं कार्यं न भवति वा तत्र द्वयमपि महाप्राणजकारः एव
आ, अत्र अभ्यासे चर्चा इत्यस्मिन् विषये पृच्छति वा, अत्र हलादिशेषः अपि कार्यं करोति खलु, हलादिशेषः?
आम् आम्, न किन्तु इदानीं तत्र झर्झ इति द्वित्वं कृत्वा यद् धातुः अस्ति तत्र झकारद्वयं विद्यते, तत्र किमपि कार्यं झर्झ इति उच्चारणस्य किञ्चित् क्लेशः भवति, संस्कृते तादृशं न भवति.
झर्झ, तत्र ओ अन्य किमपि कार्यमस्ति वा न?
हा, अन्यत् किमपि तत्र सन्धिकार्यं वा, हल् सन्धिकार्यं किमपि अस्ति?
हल् सन्धि, जकारस्य अनन्तरम् अकारः अस्ति, अनन्तरं रेपः, अनन्तरं जकारः, अतः अत्र हल् सन्धिः प्रायः न भवति, यतोहि रेपः अनन्तरं जकारः, तस्मात् पूर्वम् अकारः, अतः अत्र
तादृशमेव तिष्ठति. अग्रे महोदय पठति वा?
हा महोदय, गोपाल् महोदय.
आम्, देयमित् अभ्यासे वर्गस्य प्रथमसदस्यः तृतीयसदस्यः पञ्चमसदस्यः यण् प्रत्याहारस्थः षर् प्रत्याहारस्थः चेति वर्णानां विकारो न भवति, अतः येषां नाम अनादेश अभ्यासः इति उच्यन्ते. अनादेश अभ्यासः, उदाहरणं छल् छल्, यत्र अत्र जल् यश् च न सीरि अन्य तृतीयवर्गस्य प्रथमद्वितीय तृतीय पञ्चम यण् अपि च षर् प्रत्याहार सन्ति चेत् वर्णानां विकारो न भवति, उदाहरणं छल् छछल् इति रूपं भवति, तत्र प्रथमवर्ण अस्ति तत्र विकारः न भवति, छछल्. जप् जप् झप् एव. ठीक् ठीक् तत्र ह्रस्वः इति सूत्रेण टिठीक् इति भवति. डि डि ट्रु तत्र उरत् इति तर् तत्र ऐ मीन् तर्तृ इति तत्र इति भवति. दल् दल् ददल् नं नं ननं हलादिशेषः नं पत् पत् एते सर्वे तत्र किमपि किमर्थं कार्यं चेत् तत्र यण् अथवा प्रथमसदस्य द्वितीय सदस्य शर् किमपि अस्ति चेत् तत्र किमपि न भवति. नं नं पत् पत् बाद् बाद् बबाद् तत्र ह्रस्व बबा बाबाद् तत्र ह्रस्वः इति सूत्रेण बबाद् इति भवति. मील् मिमील् यं ययं वृद् वर् हलादिशेष ववृद् इति भवति. इति यङ्लुकि सामान्यम् अभ्यासकार्यं समाप्तं, विशिष्टाभ्यासकार्यं यथास्थानम् अग्रे प्रदर्श्यते. इदानीं द्वित्वम् अभ्यासकं यङः लुगनन्तरं यङ् निमित्तीकृत्य अङ्गकार्यं निविश्य तदपि पूर्वमेव दृष्टं न नुमता अङ्गस्य इति सूत्रेण. आकारान्तधातूनाम् एजन्तधातूनां च यगन् यङ् लुगन्तदातवः यङ् लुकि अङ्गकार्यविशेषः न लुमता अङ्गस्य.
अत्र अतो लोपः इत्यनेन ह्रस्वकरस्य लोपः भवति, यङ् इति आर्धधातुकप्रत्ययः इति कृत्वा अकारः न
कुत्र
अत्र
अत्र गोपाल महोदय पश्यतु, आकारान्तधातूनाम् इत्येव आरब्धम्, अकारान्तधातुः त्यक्तं. किमर्थम् इत्युक्ते अतोलोपः यत्र यत्र आर्धधातुकप्रत्ययः प्रयभवति तत्र सर्वत्र अतोलोपः इत्यनेन ह्रस्व अकारस्य लोपः भवति, अतः
भवति अकारान्तधातु
धातुः हलन्तः भवति इति कृत्वा तत्यक्तम्.
आम् आम् सत्यम्, अकारान्तधातूनां एजन्तधातूनां च यङ् लुगन्तदातवः न लुमताङ्गस्य, अनेन यङ् लुकि अपि आत्वादेशो अनेन केन पूर्वं इत्यनेन यङ् प्रत्ययनिमित्तम् अङ्गकार्यं निषिद्धम् आदे च उपदेश अशीति इति आत् आदेशः भवति. अनेन यङ्लुके अपि आत् आदेशो भवति. तत्र अतः पूर्व सम्पूर्णतया पठामि भगिनि. इत्यनेन एजन्तस्य धातोरात्वं परन्तु भवति. अस्य सूत्रस्य अर्थो नास्ति यत् एजन्तस्य धातोः आत्वं भवति अशीतिप्रत्ययपरे. अशीतिप्रत्ययपरे इति उच्यते चेत् यङ्लुकि अस्य कार्यं न भविष्यति, यतोहि यङ्लुकि अशित् प्रत्यये नास्ति. प्रत्ययस्य लुकि सति प्रत्ययः एव नास्ति. अतः सूत्रस्य अर्थः एवं यत् एजन्तधातोः आत्वादेशो भवति, क्षितिप्रत्यये परे न भवति. अनेन यङ्लुकि अपि आत्वादेशः भवति एव. अस्तु, पूर्वम् आदेशो उपदेशे अशीति आत् आदेशः भवति. एच एच् उपदेश एचः धातोः आत् उपदेशे अशि प्रत्ययः अस्ति चेत् अत्र प्रश्नः उदेति यत् प्रक्रियाक्रमः कः आदेश उपदेशे इति. इत्यनेन आत्वं सर्वप्रथमं भवति वा? तथा एव धातोः एकाचो फलादेः क्रियासमाविहारे यङ् इत्यनेन यङ् विधानम्, अथवा धातोः एकाचो फलादेः क्रियासमाभिहारे यङ् तदा यङोचि च इति सूत्रेण यङ् प्रत्ययस्य लुक् तदा एव आदेश उपदेशयिष्यति. अत्र सरलरीत्या चिन्तयितुं शक्नुमः यत् आदेश उपदेशयिष्यति इत्यनेन उपदेशावस्थायां कार्यं भवति, नाम धातुः औपदेशदाशिका स्यात्. अतः आरम्भे एव आत्वं भवतु, नो चेत् यङ् यदा हि विधीयते तदा हि आतिदेशिकधातोः धातुसंज्ञा भवति. तस्य निवारणार्थं सर्वप्रथमम् आदेशे उपदेशे नो चेत् किं भवति? हलादेः धातोः एका हलादेः क्रियासमवादि इति यङ् भवति चेत् तत्र औपदेश तदनन्तरं सनन्तधातुः भवति, तस्मात् आदेश उपदेशिकदाशः न स्यात्. तस्मात् पूर्वमेव कर्तव्यम् आदेश उपदेशे अशीति इति.
अग्रे महोदय.
किन्तु एतादृशं कुर्मः चेत् समस्या भवति. अपि च आदेश उपदेशे अशीति इति स्वयम् अनैमित्तिकं, स्वयम् अनैमित्तिकम्, अतः कदाचिदपि भवितुम् अर्हति. यथा जानीमः अशित् प्रत्यये परे इति तु नास्ति, अपि तु षित् प्रत्यये परे न इत्येव अधुना समस्या का इति चेत् सर्वप्रथमम् आदेश उपदेशसिति इति भवति चेत् प्रक्रिया कथं स्यात् लटि? यथा भादो ध्यै लट्, लट् प्रत्ययः षित् न, अतः आदेश उपदेश षिति इत्यनेन आत्वं. ध्या योगः लट् ध्या योगः तिप् ध्या शप् तिप् अधुना आत्वं वर्तते, शप् प्रत्ययः च परः, पुनः ध्यै इति रूपं अधुना ध्या इति रूपं शप् योगः तिप् शप् अधुना आत्वं वर्तते, शप् प्रत्ययः च परः, पुनः द्यै इति रूपं तत्र द्यै इति रूपं किमर्थं भवति? द्यै
अत्र पश्यतु महोदय, अत्र द्यै इति धातुः अस्ति. इदानीम् आत्वं कुर्मः तत्र आदेशोपदेशिषिति इति द्या इति भवति. तदनन्तरं यदा हि अत्र लट्लकारस्य प्रथमपुरुषे तिङ् प्रत्ययः आगच्छति, मध्ये शप् आगच्छति. इदानीं शप् इति प्रत्ययः षित् अस्ति इति कृत्वा तत्र आत्वं न भवति. किमर्थं चेत् अत्र अशिति इति अस्ति, परन्तु वयं तु कृतवन्तः. तर्हि अत्र पुनः द्यै इति कुर्मः वा? अत्र आत्वं न भवति इति, तर्हि तादृशक्रमः अत्र न भवितुम् अर्हति. प्रथमं कुर्मः तदनन्तरं पुनः न कुर्मः इति तथा न भवति. अतः एव दत्तमस्ति यावत्पर्यन्तं ये ये प्रत्ययाः सन्ति ते सर्वे यावत्पर्यन्तं न आगच्छन्ति तावत्पर्यन्तं वयम् आत्वं न कुर्मः. यतोहि वयं पश्यामः अत्र षित् प्रत्ययः अस्ति न वा इति. धातोः अनन्तरं षित् प्रत्ययः अस्ति चेत् न कुर्मः.
न कुर्मः आम्. परन्तु आदेश उपशति परन्तु तत्र सूत्रसङ्ख्या किमपि तत्र कार्यं न नास्ति वा?
सूत्र आदेशोपदेशे इति सूत्रे निमित्तं किमपि नास्ति. तत्र केवलं षित् प्रत्ययः परः अस्ति चेत् न भवति. तत् सूत्रं तु अन्तरङ्गसूत्रं. हा, अन्तरङ्गसूत्रं, न कोऽपि निमित्तम्. अतः अत्र प्रत्ययः नास्ति चेदपि वयं कर्तुं शक्नुमः, परन्तु अत्र समस्या भवति यदा वयं तथा कुर्मः चेत्.
अग्रे यदा शप् प्रत्ययः आगच्छति चेत् तत्र यदा वयं जानीमः आगन्तुं शक्यते चेत् पूर्वं न कुर्मः इति. अनेन बुध्यते यत् आदेशे उपदेशेति इति सूत्रं स्वयं ज्ञापयति यत् प्रथमतया ये ये प्रत्ययाः विधीयन्ते एते सर्वे आनेतव्याः. सर्वेषां विधानानन्तरस्य अनन्तरं येषु विहितप्रत्ययेषु एकोऽपि षित् नास्ति चेत् एजन्तधातोः आत्वं भवति. आम्, प्रक्रिया आरम्भे आत्वं कुर्मः चेत् सार्वधातुकप्रक्रिया नष्टा भवति. अस्य निवारणार्थं प्रत्ययाः विधेयाः तदा आत्वम्. अतः अत्र सर्वप्रथमं धातोः एकाचो हलादेः क्रियासमावरि यङ् तदा यङोचि च तदा एव आदेश उपदेशे अस्ति. तत्र क्रमशः पूर्वं द्वित्वं कृत्वा एकाचो हलादेव तदा यङोचि च इति यङ् आदेश यङ् प्रत्यय आगच्छति. तदनन्तरमेव आदेश उपदेशे अस्ति इति कर्तव्यम्. परन्तु अन्येषु स्थलेषु यत्र शप् अति षित् प्रत्यय आगच्छति न कर्तव्यम्.
तत्र सर्वेषां विधानान्तरं येषु विहितप्रत्ययेषु एकोऽपि षित् नास्ति चेत् एजन्तदत्वः अत्वं भवति इति दत्तमस्ति. इत्युक्ते तत्र साक्षात् परे इति नास्ति इति वा?
साक्षात् परे एव तत्र वयं तत्र पश्यामः चेत् तादृश अर्थः भवति, परन्तु अत्र साक्षात् अनन्तरं षित् अस्ति चेत् कार्यं न भवति तावदेव.
इत्युक्ते
सर्वे प्रत्ययाः षित् इति नास्ति.
आमां, किन्तु तत्र इदानीं तत्र ध्यै तादृश उदाहरणम् अस्ति वा इति अहं चिन्तयन् अस्मि. इदानीं तत्र लकारं त्यक्त्वा तत्र ध्यै योगः शत्रु इति स्वीकुर्मः. शत्रु इति चित् अस्ति. शत्रुप्रत्ययस्य पूर्वं विकरणप्रत्ययः किमपि आगच्छति वा?
आगच्छति एव.
इदानीं तत्र विकरणप्रत्यय धातुः स्वीकुर्मः यत्र विकरणप्रत्ययः षित् नास्ति किन्तु परे शत्रुप्रत्ययः अस्ति इति स्वीकुर्मः.
तत्रापि षिप् अस्ति षित्
तत्र अस्तु. विकरणप्रत्ययः नास्ति. अस्तु, तादृशं किमपि नास्ति इति चिन्तयामि. परन्तु
इदानीं विकरण तत्र धातुः एजन्तः अस्ति इति एकं, परे आगच्छ यद् विकरणप्रत्ययः आगच्छति तत् षित् नास्ति. इदानीं तत्र ऊ इति विकरणः प्रत्ययः वा तादृशं स्वीकुर्मः, तादृश अस्ति चेत् तदनन्तरं शत्रु इति प्रत्ययः आगच्छति चेत् तत्र धातोः साक्षात् परं षित् नास्ति. साक्षात् परं विकरणप्रत्ययः अस्ति, तदनन्तरमेव षित् अस्ति. इदानीं तत्र आदेश उपदेशे षिति इत्यस्य कार्ये
भवति एव.
इत्युक्ते साक्षात् परे इति न, यत्र कुत्रापि तत्र सर्वं आनीत्य तदनन्तरं द्रष्टव्यं. तत्र यस्य कस्यापि प्रत्ययस्य षित्वम् अस्ति चेत् तत्र आदेश उपदेशे षितिस्य कार्यं न भवति इति.
तथा नास्ति महोदय. साक्षात् अनन्तरं षित् अस्ति चेत् एव कार्यं न भवति. इदानीं यत् उदाहरणं भवान् उक्तवान् तत्र द्यै इति धातुः अस्ति, तदनन्तरम् ऊ इति प्रत्ययः अस्ति चेत् आत्वं भवति, तदनन्तरं शत्रुप्रत्ययः अस्ति चेत् तत्र किमपि तत्र न कापि समस्या?
मया विपरीततया उक्तम्. आं सम्यक्. अस्तु अस्तु. भवति इति आत्वं भवत्येव
भवति भवति. अन्यच्च आत्मे एव आदेशोपदेशे इति भवतु इत्यस्माभिः चिन्तितं, येन धातुः औपदेशिक स्यात् नाम उपदेशावस्थायां स्यात्. अत्र उच्यते यत् आतिदेशिकधातोः विधानानन्तरमपि अन्तर्निहितः औपदेशिकधातुसंज्ञा अपि वर्तते, यत् ध्यै यङ् ध्यैय इति. द्वित्वाभ्यासकार्यात् पूर्वमपि आतिदेशिकधातुसंज्ञा भवति ध्यैय इति रूपस्य, तत्र च अन्तर्निहित धै इत्यस्य तदानीमपि औपदेशिकधातुसंज्ञा वर्तते. यद्यपि तत्र सनन्तधातुः ध्यैय इति, तदपि औपदेशिकधातुसंज्ञा एव इति.
भगिनि क्षम्यतां, तत्र पुनः भ्रमः एव अस्ति मम मनसि. इदानीम् अस्माभिः किम् उक्तं, धातुः एजन्तधातुः अस्ति, तस्मात् परं ऊ इति विकरणप्रत्ययः अस्ति इति चिन्तयामः. तत्र तत् षित् प्रत्ययः नास्ति. तदनन्तरं शत्रु इति प्रत्ययः अस्ति इत्यस्मिन् अवसरे तत्र आदेश उपदेशे शिति इत्यनेन आत्वं भवति वा न वा इति पृष्टे सति भवति इति भवत्या उक्तम्. किन्तु अत्र महोदयेन किं दत्तं, येषु विहितप्रत्ययेषु एकोऽपि षित् नास्ति चेत् एजन्तदातु आत्वं
नास्ति चेत् एव
भवति.
न न, एकोऽपि नास्ति न, साक्षात् अनन्तरमेव. यद्यपि तथा दत्तमस्ति, परन्तु एकोऽपि षित् इति नास्ति. एकोऽपि षित् इति नास्ति तत्र. साक्षात् अनन्तरं षित् नास्ति चेत् एव कार्यं न कार्यं, एकोऽपि षित् नास्ति चेत् कार्यं भवति एव. तदनन्तरं आत्वं कुर्मः, तदनन्तरं तस्य अनन्तरं षित् प्रत्ययः अस्ति चेत् तत्र न कापि समस्या.
इत्युक्ते अत्र यद् महोदयेन दत्तं तद् दोषः एव. येषु विहितप्रत्ययेषु एकोऽपि षित् नास्ति चेत् एजन्तधातोः आत्वं भवति.
दोषः अस्ति वा न इति अहं न जानामि, परन्तु अत्र एकवारम् अहं महोदयं पृष्टवान् वर्गे अपि, तत्र साक्षात् अनन्तरं भवेत् वा न वा. तस्मिन् सन्दर्भे महोदय उक्तवान् तत्र साक्षात् अनन्तरमेव. साक्षात् अनन्तरं षित् अस्ति चेत् कार्यं न भवति.
अस्तु, अहम् अन्वेषणं करोमि, तादृशधातुः अस्ति वा इति अन्वेषणं करोमि. यदि किमर्थमित्युक्ते अत्र वाक्यस्य महोदयस्य वाक्यस्य अर्थः एकोऽपि षित् नास्ति चेत् इति तत्र साक्षात् यथा महोदयेन उक्तं तादृशं स्वीकुर्मश्चेत् तत्र न भवति एव.
परन्तु तत्र कार्यं तु जातम्. ऊ इति प्रत्ययः अस्ति, कार्यं जातं, तदनन्तरं तत्र षित् प्रत्ययः अथवा अन्य प्रत्यये तत्र षित् अस्ति, तत्र न कापि समस्या खलु? अत्र कार्यं जातं, यत्र निमित्तम् आसीत् अत्र षित् नासीत् तत्र प्रथमतया, तत्र कार्यं जातं, तदनन्तरम् अन्य षित् प्रत्ययः अस्ति चेत् तत्र न कापि समस्या.
न न, किन्तु तत्र कार्यं जातम् इति न द्रष्टव्यम् इति अनेन एव अत्र महोदयेन दत्तं किल. अनेन बुध्यते यत् आदेश उपदेशे शिति इति सूत्रं स्वयं ज्ञापयति यत् प्रथमतया ये प्रत्ययाः विधीयन्ते ते सर्वे आनेतव्याः, कार्यं जातं तदनन्तरम् इति नास्ति. सर्वे आनेतव्याः सर्वेषां विधानानन्तरं.
किमर्थं तथा
येषु विहितप्रत्ययेषु एकोऽपि
किमर्थं तथा उक्तम् इति चेत् अहं वदामि इदानीम्. अत्र द्या इति धातुः स्वीकरोतु, द्यायोगः लट् अस्तु. लट् इदानीं लट् स्थाने तिङ् प्रत्ययः अस्ति, द्यायोगः तिङ् प्रत्ययः अस्ति. इदानीं वयं द्यै योगः तिङ् प्रत्ययः अस्ति इति चिन्तयतु. इदानीं वयं चिन्तयामः ओ द्यै इत्यस्य अनन्तरं तिङ् प्रत्ययः अस्ति, षित् नास्ति, अतः वयम् आत्वं कुर्मः इति चिन्तयामः चेत्, परन्तु तत्र दोषः अस्ति. किमर्थं चेत् तदनन्तरं तत्र शप् मध्ये आगच्छति खलु. अतः एव महोदय तत्र लिखितवान् यावत्पर्यन्तं यानि ये प्रत्ययाः सन्ति तानि सर्वाणि ते सर्वे प्रत्ययाः वयं न आनयामः तावत्पर्यन्तं कार्यं न कुर्मः इति तदर्थम् उक्तम्.
ओ अस्तु अस्तु अस्तु.
परन्तु एकवारं
अभ्यासार्थम् अहं किं करोमि, एकं दातुं स्वीकृत्य यत्र एजन्तः अस्ति धातुः किन्तु विकरणप्रत्ययः शित् नास्ति इति तादृश उदाहरणम् अस्ति अस्ति वा इति दृष्ट्वा तादृशम् अस्ति चेत् मेल् प्रेषयिष्यामि.
अपि च महोदय भवान् यद् उदाहरणम् उक्तवान् अत्र द्यैयोगः शत्रु इति उक्तवान्, द्यैयोगः शत्रु इति अस्ति. इदानीम् अत्र प्रथमं शत्रुप्रत्ययः एव भवति तत्र अत्र तत्र लट् स्थाने शत्रुप्रत्ययः आगच्छति. इदानीं द्यैयोगः शत्रु अस्ति, इदानीं शत्रुप्रत्ययः षित् अस्ति इति चिन्तयित्वा वयम् अत्वं न कुर्मः. अस्तु सम्यक् एव न कुर्मः, सम्यक् एव पदन परन्तु तत्र शत्रुप्रत्ययनिमित्तीकृत्य मध्ये विकर्णप्रत्ययः आगच्छति उ इति प्रत्ययः. इदानीम् उ इति प्रत्ययः षित् नास्ति, अतः इदानीं वयं कर्तुं शक्नुमः. अतः एव तत्र लिखितमस्ति यावत्पर्यन्तं सर्वे प्रत्ययाः न आगच्छन्ति तावत्पर्यन्तं कार्यं न करोतु इति, यतोहि वयं न जानीमः कुत्र कः प्रत्ययः आगच्छति इति न जानीमः.
तत् तत् अवगतं, किन्तु अत्र अस्मिन् वाक्ये एव क्लेशः. इदानीं तत् तादृशं कुर्मश्चेत् येषु विहितप्रत्ययेषु एकोऽपि षित् नास्ति चेत् इति लिखितम् इति इदानीं तत्र ध्यैयोगः उयोगः शत्र इति चिन्तयति चेत् तत्र एकोऽपि षित् नास्ति इति न वक्तुं शक्यते. षित् अस्ति इति कृत्वा अत्र आत्वं न भवति.
हा एकोऽपि षित् इत्युक्ते साक्षात् अनन्तरम् इति एव चिन्तनीयं, साक्षात्
तत्र तदेव. यदि तत्र साक्षात् अनन्तरं तत्र प्रथमतया ये प्रत्ययाः विधीयन्ते ते सर्वे आनेतव्याः, तदनन्तरं सर्वेषां विधानानन्तरं इदानीं धातोः परे साक्षात् यद् प्रत्ययः अस्ति तत् षित् नास्ति चेत् आत्वं भवति इति लिखति चेत् तत्र स्पष्टता भवति.
सत्यं महोदय, सत्यं सत्यमेव. मम अपि किञ्चित् क्लेशः आसीत् पूर्वं तस्मिन् विषये, अतः एव एकवारम् अहं वर्गे पृष्टवती. तस्मिन् विषये महोदय स्पष्टीकृतवान् अत्र साक्षात् अनन्तरमेव इति.
परन्तु एकवारं यत् कोऽपि प्रति आगच्छति तदनन्तरम् अन्यकार्यं भवति शत्रु इति अन्यकार्यम्. ओके
सत्यं सत्यम्,
तस्मात् तत्र किमपि दोषः नास्ति.
सत्यं महोदय, सत्यम्
इति तत्र या यदा एकं कार्यं कृतं तदनन्तरं किमपि भवतु विनो तत् नूतनपदं भवति इदानीं.
सत्यं सत्यं सत्यम्.
अस्तु समापयामः.
अस्तु समापयामः, समयः जातः. अस्तु धन्यवादः, नमस्कारः. धन्यवादः.